राग द्वेष विह हि भवति ज्ञानमज्ञान भावात् तौ वस्तुत्व प्रणिहित दृशा दृश्यमानौ न किञ्चित् सम्यग् दृष्टिः क्षपयतु ततस्तत्त्वदृष्ट्या स्फुटन्तौ ज्ज्योतिर्ज्वलति सहजं येन पूर्णाचलार्चिः।